Sarvebhyo Namaha Swagatam. Today is our second class. So we will start the class by revising what we did last week. So can anyone tell me what we did last week?
We did Eshaha and Esha and Saha and Sa and Tat and Etat.
Yes, Vaini. Yes, Vaini. What did we learn about the genders?
Strilinga, Pullinga, Napumsakalinga.
Yes. So we have masculine, feminine, and neutral. What did we learn about the vachanam, like singular? How many?
We learned ekvachanam, dvivachanam, and bahuvachanam with masculine and in the feminine. Feminine
and,
both ending
and,
in eka, e, and a.
Yes, samichinam. So we did Gita Sopanam pages 3 to 6 and we stopped halfway through page 6, so we'll continue on from there today. Are there any questions on what we covered last week? Astu.
Yes, Bhagini. I want to purchase this book, Gita Sopanam.
Yes, Bhagini.
Is it available online?
Yes, Bhagini. In the first week, I sent the welcome email, right, Bhagini? In that email, I wrote, bring your Gita Sopanam book. If you click the Gita Sopanam one, you'll get the link to buy the book.
I tried. But it is not showing. It's not showing the Gita Sopanam level 1 book.
Okay, 1 minute. Check. Let me check, Bhagini.
Okay.
I am getting it open, Bhagini. Let me share my screen and I will. 1 second. This is the page you should see if you click the link.
Yes, I'm getting this. Anyway, I will try once again. I got this.
Okay, you're not able to buy it after you add it to cart?
Yeah. I will try. Moreover, it is in dollars. It is available in the US. I'm from India.
Okay, I'll put in the link for this is Sanskrit about the USA, Bhagini. I'll also put in the link for India. I forgot about that. Okay. I'll put that into Bhagini.
Okay.
Bhagini, this is Narasimha Murthy.
Yes,
so I have got a soft copy of this Gita Sopanam. If you want, I can send it to you.
Sure.
No, I have the soft copy too, Mahodaya, but that's what I'm sharing right now. So if people want it, maybe we can do that.
Yeah, definitely. It helps a lot.
Okay, we'll see. Okay. Okay, so let us start from where we left off last week. So, Jagan Mohan Modya, Bhavan Patativa, can you read here? Etat Syandanam. Asso, Kritika Bhagini, can you read?
Etat Syandanam, Ete Syandane, Etani Syandanani.
Samijin. Good. So what does Syandanam mean?
Chariot.
So this is for neutral gender, Napumsakalingam. So this is Ekavachanam, this is singular, Dvivachanam, dual, and plural, Bahuvachanam. So let us do the exercise. So Etat Palam, Yete Pale, Yetani Palani. So what does palam mean?
fruit.
Pala means fruit. Astu. Anantara, Madhavi Bhagini, can you read this one? Chakram.
Eta chakram. Ete chakre. Etani chakrani.
Samichinam. Good. Astu. Now, Narasimha Murthy Mahodaya.
Etat pustakam. Ete pustake. Etani pustakani.
Pustakam means?
A book.
Book. Astu. Prabhakar Mahodaya, can you read
that? Ambagini. Etat yanam. Ete yane. Etani yanani.
Nice. Priya Bhagini, Bhavati Karotiva.
Hamagini. Etat mukam. Ete muke. Etani mukani.
Samichina. Mukam means?
Face, Bhagini, or mouth.
Samichina. Face or mouth. Radha Bhagini, can you do the next one?
Bhagini. Etat nagaram. Ete nagare. Etani nagarani.
Samichina. Now we do it with Etat, Ete, Etani. Right? So now we will do it with Tat, Te, Tani. Okay? So, Shilpa Bhagini, can you read the top one and then do the second one?
This is my first class, so I will try.
Sure, Bhagini.
Tat nakshatram, te nakshatre, tani nakshatrani.
Samichinam. Anantaram. Sudha Bhagini, can you do the next one?
Te upanetre. Tani upanetrani.
Tat upanetram. Te upanetre. Tani upanetrani.
Tat upanetram. Te upanetre. Tani upanetrani.
Samichinam. Astu. Punit Mahodaya, can you do the next one?
Tat parnam. Te parne. Tani parnani.
Samichinam. Nice. Jagan Mohan Mahodaya. Astu. Kritika Bhagini.
Tat shastram.
Shastram.
Te shastre. Tani shastrani.
Samichinam. Good.
Samichinam. Good.
Madhavi Bhagini, can you do the next one?
Tat chitram, te chitre, tani chitrani.
Tani chitra. Samichinam. Next, Narasimha Murthy Mahodaya.
Tat balam, te bale, tani balani.
Samichinam. Astu. Are there any questions here? Prashnaha Santiva.
Yanam meaning.
Vehicle. Any other questions?
Bhagini, I wanted to know the difference between Yetas and
So, yetat, yete, etani, these three will be used when you referring to something that is near. Tat, te, and tani will be used to refer when something is far.
Okay.
Astu. Any other questions? Astu. So, moving on. Priya Bhagini, can you read the top? Yeah.
Bhagini. Uchaihi patata janita cha.
What does that mean?
Read loudly and understand.
Samichinam. So avadeyam, important.
Avadeyam. Ekavachanam, dvivachanam, bahuvachanam. Akarantah pullingah. Akarantha pullingah. Yadavah, yadavau, yadavah. Akarantha strilingah. Sena, sene, senah. You want me to continue, Bhagini?
Yes, ma'am.
Ikarantah strilingah. Mahi, mahyau, mahyah. Akarantah na pumsakalingah. Sukham, suke, sukani.
Samichin. So, what we're saying here is akarantah pulingah. So, pulingah is masculine. So, here we're talking about masculine nouns that end with a. So, akaranta. So, masculine nouns that end with a. Okay. So, if you look at yadavaha, so each word has a root word. Each word has a root word called pratipadikam. So, the root word is called pratipadikam. So, if you look at yadavaha, it has the visargaha at the end, right? So, for akaranta pulingaha, yadavaha, the pratipadikam, the root word will be yadava. So yadava ends with akarantaha. So this word is called akaranta pulingaha. Shall I repeat this again? Okay, so for akaranta pullingaha, we know that pullingaha means masculine. So akarantaha means nouns that end in a, the letter a. So akaranta pullingaha means nouns that end, masculine nouns that end in the letter a. So if you look at yadavaha, yadavaha is ekavachanam, right? So yadavaha, that has, each word has a root word. So yadavaha has a root word that is called pratipadikam. Root word is always called pratipadikam. So the pratipadikam, the root word of yadavaha, is going to be yadava. You just remove the visargaha. Are there any questions? Okay. So, for akaranta pulingaha, we have yadavaha. Yadavaha is, so ekavacham yadavaha, yadavo, yadavaha we have. So, the root word for yadavaha is yadava. Yadava ends in a, so this is a akaranta pulingaha. Any questions, or can I move on to akaranta strilingaha?
And similar lines, balakaha, vruddhaha,
yes,
ganeshaha.
Yeah,
all these are masculine.
So, akaranta pulingaha. They're all akaranta
pulingaha. All end with a. Suppose if we take Ganeshaha, Ganeshau, Ganesha, Ganeshaha.
Yes.
Huh?
Yes.
Right?
Bhagini. Correct, Bhagini.
Thank you.
Okay. So now we have Akaranta Strilingaha. So Strilingaha means feminine. We know that. So we just learned that Akaranta means ending in A. Akaranta means ending in A. So, the example word we have is Sena. So, here we don't even have to look at the root word because Sena already ends in A. So, Sena, the word Sena, its root word is just the same. It is just Sena. So for pullingaha, we had to change it to the root word. We had to take out the visargaha. Here, we don't have to do anything. Sena already ends in a. So it is akaranta strilinga. The forms are sena, sene, senaha. Then, are there any questions in akaranta strilinga?
Bhagini, this is we just have to memorize, right? There is no other shortcut here.
So if you memorize the forms, Mahodaya, if you say, if you keep your main word as Yadavaha, then you memorize Yadava, Yadava, Yadavaha. Then any other word you get, you'll just make it the same. So if you know Yadavaha, Yadava, Yadavaha, you can say Balakaha, Balako, Balakaha.
Yeah, we need to take 4 or 5 examples, and we need to repeatedly, if we recite, I think then we get used to.
Yes.
The similar way, Sita, 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 Sita.
Just like Mala, Male, Malaha.
Right. Balika, Balike, Balikaha.
One second. So if we want to get practice in this, we will just have to do different words. So like if you have Sena, then you just do Mala, Balika. You do different things in the same Can you see my screen now?
No.
One second. What about now?
No, not yet.
Okay. Let me try it again. What about now?
No, not yet.
Okay, let's see if it comes now. So we'll first do practice for akaranta pullingaha. So akaranta pullingaha, the only example they have given is yadavaha, yadavo, yadavaha. So we'll do a few rounds just going through these words. Okay. So agrajaha. What are the forms of agrajaha?
Agrajaha, agrajau, agrajaha.
Samichina. So like that, whenever I call on you, just say the three forms. Okay. So we did agrajaha. Puneet Mohatya, Ankaha?
Ankaha, Ankaha.
Ankaha, Ankau, Ankaha.
Samichinam. Astu. Jagan Mohan Mohatya? Ankuraha. अस्तु कृतिका भगिनी
अङ्कुरः अङ्कुरौ अङ्कुराः
समीचीनं माधवी भगिनी
शिक्षकः शिक्षकौ शिक्षकाः
समीचीनं मीन
अध्यापकः अनिकलोषः अनिकलोषौ अनिकलोषाः
अनिकलोषः अनिकलोषौ अनिकलोषाः. मोहन महोदय,
did we do adhyapakah bagini?
No mohoday, you can do adhyapaka.
Yeah, adhyapakah, adhyapakau, adhyapakah.
Samichinam. Narasimhamurthy mohoday, anujaha.
Anujaha, anujau, anujah.
Samichinam. Prabhakar mohoday, alakah.
Alak. अलकः अलकौ अलकाः.
समीचीनं. प्रिया भगिनी, अश्वः.
अश्वः अश्वौ अश्वाः.
राधा भगिनी,
अस्त्रचिकित्सकः अस्त्रचिकित्सकौ अस्त्रचिकित्सकाः.
समीचीनम्. अनन्तरं, is there anyone I haven't called on yet?
Myself, Bhagini. Akasha.
Samichinam. Anyone else I haven't called on? So did everyone get a turn? Okay. Puneet Mohdia.
आपणिकः आपणिकौ आपणिकाः.
कृतिका भगिनी, किन् यु डु
आचमनीयः आचमनीयौ आचमनीयाः.
समीचीनं समीचीनं. माधवी भगिनी, आरक्षकः
आरक्षकः आरक्षकौ आरक्षकाः.
समीचीनं. मीनल भगिनी,
आर्यपुत्रः आर्यपुत्रौ आर्यपुत्राः.
समीचीनं. मोहन महोदय, आसन्दः
आसन्दः आसन्दौ आसन्दाः.
नरसिंहमूर्ति महोदय,
इन्द्रजालिकः इन्द्रजालिकौ इन्द्रजालिका.
समीचीनं. प्रभाकर महोदय,
उद्यानपालकः उद्यानपालकौ उद्यानपालकाः.
समीचीनं. प्रिया भगिनी,
उपग्रहः उपग्रहौ उपग्रहाः.
समीचीनं. राधा भगिनी,
उपस्करः उपस्करौ उपस्कराः.
समीचीनं. शिल्पा भगिनी, समीचीनम्. ओके, सो गोयिङ्ग् बेक् टु गीता सोपानम्. सो नौ वि डिड् प्राक्टिस् आन् अकारान्त पुल्लिङ्गः. सो आल् आफ् देम् वित् द सेम् यादवः यादवो यादवः. इट् वास् द सेम् फार्म्. सो नौ आकारान्त स्त्रीलिङ्गः. So, for Akaranta Srilingaha, the forms are Sena, Sene, Senaha. Okay? So, one second. Puneet Mohatya, can you start from Agni Petika?
Agni Petika, Agni Petike, Agni Petikaha.
अनन्तरं कृतिका भगिनी,
अग्रजा अग्रजे अग्रजाः.
समीचीनं समीचीनम्. अस्तु, अनन्तरं माधवी भगिनी,
अजा अजे अजाः.
समीचीनं. मीनल भगिनी, अस्तु. मोहन महोदय,
अनुजा अनुजे अनुजाः.
समीचीनम्. उत्पीठिका. नरसिंहमूर्ति महोदय.
उत्पीठिका, उत्पीठिके, उत्पीठिकाः.
समीचीनम्. प्रभाकर महोदय.
उपचारिका, उपचारिके, उपचारिकाः.
समीचीनम्. प्रिया भगिनी.
कथा, कथे, कथाः.
समीचीनम्. राधा भगिनी.
कपाटिका, कपाटिके, कपाटिकाः.
समीचीनम्. शिल्पा भगिनी. कलिका रैट् भगिनि.
कलिका, कलिके, कलिकाः.
समीचीनम्. अस्तु. पुनीत् महोदय.
कुञ्चिका, कुञ्चिके, कुञ्चिकाः.
समीचीनम्. कृतिका भगिनि.
गन्धवर्तिका, गन्धवर्तिके, गन्धवर्तिकाः.
समीचीनम्. माधवि भगिनि.
गायिका, गायिके, गायिकाः.
समीचीनम्. मीनल् भगिनि.
गृहो गोधिका, गृहो गोधिके, गृहो गोधिकाः.
समीचीनम्. मोहन् महोदय.
गौशाला, गौशाले, गौशालाः.
समीचीनम्. नरसिंहमूर्ति महोदय.
घण्टिका, घण्टिके, घण्टिकाः.
समीचीनम्. प्रभाकर.
सारी, चटका, चटके, चटकाः.
समीचीनम्. प्रिया भगिनी.
छात्रा, छात्रे, छात्राः.
समीचीनम्. राधा भगिनी.
चूरिका, चूरिके, चूरिकाः.
समीचीनम्. शिल्पा भगिनी.
जलन्लिका, जलन्लिके, जलन्लिकाः.
समीचीनम्. अस्तु. नेक्स्ट्, ईकारान्त स्त्रीलिङ्गः. सो हियर् ईकारान्त स्त्रीलिङ्गः वी हाव् मही, मह्यौ, मह्यः. सो ईकारान्त मीन्स् एण्डिङ्ग् इन् ई. सो स्त्रीलिङ्गः मीन्स् फेमिनिन् वर्ड्स् एण्डिङ्ग् इन् ई. सो वी हाव् मही, मह्यौ, मह्यः. सो दिस् इस् जस्ट् लैक् नदी, नद्यौ, नद्यः, और् वाट् एवर् वर्ड् यु वाण्ट् टु टेक्. So, let us practice a bit on that. Asso. Puneet Mohatya. First one.
Ankana Lekhani. Ankana Lekhanyau. Ankana Lekhanyaha.
Samichinam. Jagan Mohan Mohatya. अस्तु. कृतिका भगिनी.
अङ्किनी, अङ्किन्यौ, अङ्किन्यः.
समीचीनं. समीचीनम्. माधवि भगिनी.
अङ्गुली, अङ्गुल्यौ, अङ्गुल्याः.
समीचीनं. मीनल् भगिनी.
जननी, जनन्यौ, जनन्यः.
समीचीनम्.
Maggie, how would we say it for the Amba? Ambiyav?
No, no, Amba is Akaranta.
Amba, oh. Amba, Ambe, Ambaha.
It is right, right.
Sorry,
okay.
Sorry.
Got confused. No, no
sorry,
problem.
Bhagini.
No problem.
Bhagini, is it Amba, Ambe,
Ambaha? Wow. What Mahodhya?
For Amba, it will be Akaranta Srilinga. So is it Amba, Ambe, Ambaha?
Yes. Yes, Mahodhya.
Thank you.
अस्तु अनन्तरं एकनिमिषः मोहन् महोदय अस्तु नरसिंहमूर्तिमहोदय
अवसर्पिणी अवसर्पिण्यौ अवसर्पिण्यः
भगिनी सारि ऐ थाट् ऐ वास् सेयिङ्ग् इट् ऐ वास् आन् म्यूट् ऐ केन् से इट् अगेन्
यु केन् डू नेक्स्ट् वन् लेट्स् स्किप् अवीः आकाशवाणी
आकाशवाणी आकाशवाण्यौ आकाशवाण्यः
समीचीनम् अनन्तरं प्रभाकर् महोदय
कर्तरि कर्तर्यौ कर्तर्यः
समीचीनं क्षेपणी प्रिया भगिनी
क्षेपणी क्षेपण्यौ क्षेपण्यः
समीचीनं राधा भगिनी
गृहिणी गृहिण्यौ गृहिण्यः
समीचीनं शिल्पा भगिनी
गटी गटौ गट्टाः
गटी गट्यौ गट्यः समीचीनम् पुनीत् महोदय
चालनी चालन्यौ चालन्यः
समीचीनं कृतिका भगिनी जङ्गमदूरवाणी
जङ्गमदूरवाणी जङ्गमदूरवाण्यौ जङ्गमदूरवाण्यः
समीचीनं माधवी भगिनी चलदूरवाणी
चलदूरवाणी चलदूरवाण्यौ चलदूरवाण्यः
समीचीनं अनन्तरं मीनल भगिनी करदूरवाणी
करदूरवाणी करदूरवाण्योः करदूरवाण्यः
करदूरवाणी करदूरवाण्यौ करदूरवाण्यः समीचीनं मोहन् महोदय
जलकूपी जलकूप्यौ जलकूप्यः
समीचीनं नरसिंहमूर्तिमहोदय
तन्त्रिः तन्त्र्यौ तन्त्र्यः
समीचीनं स्किप् दट् वन् प्रभाकर् महोदय दर्वी
दर्वी दर्व्यौ दर्व्यः
समीचीनं प्रिया भगिनी दूरवाणी
दूरवाणी दूरवाण्यौ दूरवाण्यः
समीचीनं राधा भगिनी
द्रोणी द्रोण्यौ द्रोण्यः
समीचीनं शिल्पा भगिनी
द्विचक्री द्विचक्रौ द्विचौ द्विचक्रौ
द्विचक्रे द्विचक्र्यौ द्विचक्र्यः समीचीनं नेक्स्ट् अकारान्त नपुंसकलिङ्गः सो न्यूट्रल् वर्ड्स् दट् एण्ड् इन् अ सो हियर् वी हाव् सुखं So sukham doesn't end in a. So we have to look at the pratipadikam. So the pratipadikam is the root word. So the root word of sukham is sukha. The makaram goes away. So you just have sukha. Sukha ends in a. So these are the akaranta napumsakalinga. So this will be sukham sukhe sukhani. Asso. So for example, it will be aksharam akshare aksharani. Asso. Punit Mahodaya? From this?
I just have one doubt. For aksharam akshare, it's aksharani or aksharani?
Aksharani.
Na or na?
Na.
Na. Na. Okay. Okay. Fine.
So, if we want to know which na we put, we'll have to go more in depth. We won't do that today, but we may do that later on in this class.
Okay. Agnishamaka vahanam.
Mm-hmm.
Agnishamaka vahane. Agnishamaka vahanani.
Samichina. Anantara. Anguliyakam. Kritika Bhagini.
Anguliyakam. Anguliyake. Anguliyanani.
Anguliyakani.
Kani. Anguliyakani. Sorry.
Anantara. Madhavi Bhagini.
Anasaphalam. Anasaphale. Anasaphalani.
Samichin. Anantaram Meenal Bhagini. Astona Mohan Mahodaya.
Anasaphalam. Anasaphale. Anasaphalani.
Anasaphalam. Anasaphale. Anasaphalani.
Anasaphalam. Okay.
Narasimurthy Mahodaya.
Abhiyanam. Abhiyane. Abhiyane nani.
Abhiyanam. Abhiyane. Abhiyanani. Samichinam. Prabhakar Mahodaya.
Arghe no? Arghe patram. Arghe patrani. Patrani Nino? No. Patrani.
Patrani.
Yeah. Then
Bhagini, I have one question. So that is Ardhya Patram, not Argya. It is Ardhya, is it?
Argya Patram.
Okay.
Asta. Priya Bhagini.
Abharanam. Abharana. Abharane. Abharanani.
Samichya. Radha Bhagini.
Amram. Amre. Amrani.
Samichinam. Asto. Anantaram Shilpa Bhagini.
Ardrakam,
Ardrake, Ardrakani. Okay, so today we will only be studying these four types of words. Okay, so I will send the link of this website. Please, whenever you have time, just go through them and say the words. This is good for practice of knowing the forms and for vocabulary. Astu. Kshamyatam. Astu. So now let's do the exercise in Gita Sopanam. So Abhyasaha. Koshtakayoho Shabdan Sri Kritya Yato Daharanam Vakyani Rachayata. Astu. So looking take words from the table. So you have to take one word from here and one word from here and put them together to make a sentence. So first one, Nartakyaha. Puneet Mahodaya? Nartakyaha. What pronoun would you put before it? So this is for masculine, this is for feminine, this is for neutral. So Nartakyaha. And the words in here can be any vachanam. They can be singular, dual, or plural. So, Puneet Mahodaya, Nartakyaha.
Yeshaha, Nartakyaha.
No. So, Nartakyaha, it looks like Yadavaha. But, Nartakyaha, I just said, it can be Ekavachanam, Dvivachanam, or Bahuvachanam.
Okay. Okay.
So, this is actually Ikaranta Srilingaha. This is Nartaki, Nartakyau, Nartakyaha.
So, ete nartakyaha.
No, etaha.
Srilingam. Etaha or taha. Etaha nartakyaha, taha nartakyaha.
Okay.
Nartakyaha.
Eshaha, so the one on the left and one on the right, what is the difference? Like eshaha and saha. So how in English, if you were to say esha, ete, etaha, sa, te, taha, how do we differentiate?
It will be this, that in masculine, feminine and neutral. So this will be esha, that will be sa.
Oh, this is esha, that is sa, okay.
It's near and far.
Okay.
Anantaram Kritika Bhagini Gitam.
Gitam. Etat Gitam.
Etat Gitam. Etat Gitam or?
Or Tat Gitam.
Tat Gitam. Tat Gitam. Madhavi Bhagini Abharanani.
Ete Abharanani.
Etani.
Etani Abharanani. Plural.
Tani Abharanani, Tani Abharanani.
Tani Abharanani.
Oh. Upanyasaha. Meenal Bhagini.
Ma'am, should I say all the three? Eshaha Upanasyaha. Etau Upanasye. Upanasyo. Upanas. Wow. Upanasyo.
Upanyasau. Yes. Okay. Astu, anantaram next. Mohan Mahodaya.
Janabhasha. Is it Akaranta Strilinga?
Yes.
So, Esha Janabhasha. Sa Janabhasha.
Samichinam, that's it. Patre, Nasimamuti Mahodaya.
Patre, Yete, Patre, Yetani, Patrani, Tat Patre.
Te Patre. Kupyaha, Prabhakar Mahodaya.
Etaha Kupyaha. Taha Kupyaha.
Samichinam. Next, Prakoshtau. Priya Bhagini.
Is Mapike Bhagini?
Oh, sorry, Mapike. Yes.
Mapike, Mapika, Sri Linga, Akaranta Sri Lingam, na Bhagini? Te Mapike.
Samichina. Asto. Radha Bhagini, Prakoshtau.
Prakoshtaha Akaranta Pulinga, Dvivachanam. So, E Tau Prakashtau, Tau Prakashtau.
Samichina. Khantaha Shilpa Bhagini.
Khantaha. ईकारान्त स्त्रीलिङ्गः श्रुतेतः कण्ठः सः कण्ठः साः कण्ठः
कण्ठः एषः कण्ठः सः कण्ठः
अकारान्त पुंलिङ्ग
यस् दट्स् वै एषः सः अनन्तरं पुनीतमहोदय गुलिकाः
आकारान्तः स्त्रीलिङ्गाः एताः गुलिकाः ताः गुलिकाः
समीचीनं
भगिनी केन् ऐ आस्क् अ क्वश्चन् प्लीस्
यस् यस्
नौ सपोज़् इफ् ऐ डोण्ट् नो गुलिका इस् अ मास्कुलिन् और् फेमिनिन् सो हौ विल् ऐ नो बिकास् बोत् हेव् एण्ड् इन् आह द बहुलिङ्ग बहुवचनं गुलिकाः कुड् बि I don't know the, if I don't know the word, how do I make out whether it's a masculine or a feminine?
So when you have a, like, just the word is given right here, Bhagini. So we don't know, like you asked, we don't know, we have to like search it up somewhere or you have to know the word. But when it's in a story or something in a sentence, then we can figure out if it is masculine or feminine. But the word alone, figure out if
okay, so you just need to know whether they are feminine or masculine.
Like if this, yes. If it's in a story, if you don't know, probably get easier to know.
See, like the next verse, talaha. Now, I don't know whether this is masculine or feminine. So, I don't know whether it is, I should say, एते तालाः और् एताः तालाः
यस् भगिनि यस् भगिनि अस्तु नरसिंहमूर्तिमहोदय तालाः
एताः तालाः ताः तालाः
समीचीनं कृतिका भगिनी स्नुषा
सुंषा सो इट् विल् बि
रथौ एकनिमिष माधवी भगिनि
रथौ Is it Akaranta Pullinga? Rathau?
Yes.
Akaranta Pullinga Rathau means Etau Rathau, Tau Rathau.
Samichin. Next, Sevakaha, Meenal Bhaini.
Akaranta Pullinga Shabda. So it is... एते सेविकाः एण्ड् ते सेविकाः
समीचीनं मोहन् महोदय अस्तु नरसिंहमूर्तिमहोदय
Sorry, Bhagini, I put myself on mute. So one question on this, Sevakaha. Sevakaha is the, is Akaranta Pumlinga Bahuvachanam. So, Ete Sevakaha and Te Sevakaha, correct?
Yes.
Okay. Yeah, okay. And Shankaha is also a Shankaha. So, Ete Shankaha, Te Shankaha.
Yes, Mahodaya. अस्तु अनन्तरं भेर्यः
एषः भेर्यः सः
सः वैर्यः.
समीचीनम्.
भगिनी इस् इट् ता नो भेरि भेर्यो भेर्य नो करेक्ट् इस् नाट् भेरि भेर्यो भेर्यः
आम् वेरि वेर्यो वेर्यः एव
इकारान्त श्रीलिङ्गति
आमां सारि एताः
एताः
अस्तु प्रभाकर महोदय
लोकयानानि एतानि लोकयानानि एतानि लोकयानानि नपुसङ्कलिङ्ग बहुवचनं
प्रिया भगिनी
मामकाः एताः मामकाः ताः मामकाः
समीचीनं
भगिनी बोत् भगिनी एताः एण्ड् आल्सो एते बोत् वर्क्
भगिनी I think it only works for pullingam bagini
pullingam so I said it wrong okay ete mamakah te mamakah
gramah radha bagini
gramah gramau gramah so ete gramah and te gramah
samichinam shilpa bagini parnani बहुवचनं भगिनि
एते पर्णानि ते पर्णानि
नपुंसकलिङ्गं भगिनि न्यूट्रल् जेण्डर्
एतानि पर्णानि
समीचीनम् अस्तु पुनीत् महोदय
इकारान्तः स्त्रीलिङ्गं स्त्रीलिङ्गः द्विवचनम् एते गट्यौ ते गट्यौ
गटि स्त्रीलिङ्गं
गट् एते एते गट्यौ ते गट्यौ
ओके करेक्ट् महोदय अस्तु अनन्तरं कृतिका भगिनी
श्लोकाः सो ऐ थिङ्क् इट्स् एते श्लोकाः ते श्लोकाः
समीचीनं समीचीनम् अभ्यासः मीनल् भगिनी
अभ्यासाः दिस् इस् एते अभ्यासाः ते अभ्यासाः
समीचीनम् अनन्तरं नरसिंहमूर्तिमहोदय
सूच्यः इति सूची सूच्यौ सूच्यः त्रिलिङ्ग सो एताः सूच्यः ताः सूच्यः
समीचीनं मोहन् महोदय
शाटिका आकारान्तस्त्रीलिङ्गः एषा शाटिका सा शाटिका
समीचीनं प्रभाकर महोदय
आसन आसनं नपुंसकलिङ्ग एकवचनं नो एतत् आसनं तत् आसनं
समीचीनं प्रिया भगिनी
माला सा माला एषा माला
समीचीनं राधा भगिनी
वस्त्रं सो वस्त्रे वस्त्रं वस्त्रे वस्त्राणि नपुंसकलिङ्गम् एते वस्त्रे ते वस्त्रे
समीचीनं शिल्पा भगिनी
पाण्डव पाण्डवौ?
यस् भगिनि.
एते पाण्डवौ? ते पाण्डवौ?
एतौ पाण्डवौ?
एतौ पाण्डवौ? अतौ पाण्डवौ?
अनन्तरं द्रौपदेयाः? पुनीत् महोदय.
द्रौपदीयाः आकारान्तः स्त्रीलिङ्गः. एताः द्रौपदीयाः, ताः द्रौपदीयाः.
अनन्तरं
द्रौपदी,
इट् इस् नाट् द्रौपदीयाः, इट् इस् मास्कुलिन् महोदय.
भोजनं
it won't be eta, it will be ete and te.
So what does the word draupadeyah mean?
Draupadi san.
Okay, so this is a pumlinga. However, this draupade, draupadeyah is bahuvachanam pumlinga.
Correct. Yes, so it will be ete.
Yes.
एते द्रौपदेयाः, ते द्रौपदेयाः.
अस्तु, अनन्तरं नरसिंहमूर्ति महोदय.
अकारान्तपुल्लिङ्गः नायकः, एषः नायकः, सः नायकः.
समीचीनम्. अनन्तरं प्रभाकर महोदय.
इट् इस् हया, हयाः, ऐ थिङ्क् इट् इस् पुल्लिङ्ग, पुल्लिङ्ग बहुवचनं. हयः, हयौ, हयः, करेक्ट् भगिनि? So it is ete hayaha, te hayaha. Is it correct?
Yes, yes.
Dhanyavaad.
Priya bhagini.
Pitamahaha. Eshaha pitamahaha, saha pitamahaha.
Samichinam. Anantaram Radha bhagini.
Syandanam. अकारान्त नपुंसकलिङ्गं द्विवचनं स्यन्दने. एते स्यन्दने, ते स्यन्दने.
समीचीनं. शिल्पा भगिनी.
संस्कृत गृहम्. So, etat sanskrit graham, tat sanskrit graham,
etat sanskrit graham, tat sanskrit graham. Atra prashna hasantiva, are there any questions?
Ma'am, one question please.
Yes.
What's the meaning of
So now we will use the question words. So for pullingam it is kaha kauke. Masculine this is kaha kauke. Feminine it is ka ke kaha. Neutral it is kin ke kaani. So shuraha. Puneet Mahodaya.
Shuraha ke already used.
Okay. So Pushpam.
पुष्पं किं पुष्पं
अनन्तरं योधाः कृतिका भगिनि
के योधाः
समीचीनम् अनन्तरं शस्त्राणि मीना भगिनि
कानि शस्त्राणि
समीचीनं सारि मोहन् महोदय
लते लता लते लता आकार सो के लते
के लते
फेमिनिन द्विवचनं
नस्य मूर्ति महोदय
रथः रथ सो कौ रथौ
आं समीचीनम् अनन्तरं सभासर् महोदय
के सेने के सेने
अनन्तरं प्रिया भगिनी
जाह्नवी का जाह्नवी
का जाह्नवी समीचीनम् अनन्तरं राधा भगिनी
चक्रे चक्रं चक्रे चक्राणि के चक्रे
समीचीनम् अस्तु अनन्तरं शिल्पा भगिनी समीचीनम् अनन्तरं पुनीत महोदय
वंशी का वंशी
समीचीनं कृतिका भगिनि
गजेन्द्रः कः गजेन्द्रः
समीचीनं समीचीनम् अनन्तरं
भगिनि वन् क्वश्चन् वंशी is that ikarantha strilinga
yes
okay so ka vamshi okay but okay
gajendrah kah gajendrah
no bagini makaro
makaro ka makaro
samichin anantaram mohan mahodaya
विद्याः विद्यः विद्या इस् इट् के विद्याः विद्यः
सो विद्याः
ओके सो इस् इट् काः विद्याः देन् स्त्रीलिङ्ग विद्या ओ विद्या विद्यौ विद्याः
विद्या विद्ये विद्याः
नाट् विद्या ओके विद्या विद्ये विद्या ओके
अनन्तरम् अयनानि दर्शयमूर्ति महोदय
अयनानि कानि अयनानि
समीचीनम् अस्तु आर् देर् एनी क्वश्चन्स् हियर्
So this this vidya is vidye so not the pumlinga dvivachanam au comes and strilinga dvivachanam e comes sene seno okay I mean
so these questions are where is it or which flower or where is flower is it or which flower and any difference between putting the k before or after shura
Yeah, it doesn't matter if you put K before and after, it doesn't matter, it still means the same thing, K, Shuraha, Shuraha, K. So if you are, Pushpam, Kim Pushpam, then you're asking which flower.
Okay.
So, next chapter, this is, तृतीयः कृष्णः गोपिकाः च सो देयर् इस् अ पिक्चर् गिवन् सो एतत् चित्रं पश्यत पार्श्वस्थानि वाक्यानि उच्चैः पठता च. लुक् अट् द पिक्चर् एण्ड् रीड् द सेण्टेन्सेस् गिवन्. सो अत्र चित्रं दृश्यते. अस्तु, अत्र राधा भगिनी भवती can you like read each sentence and give the translation?
Aam bhagini. Esha Krishna. This is Krishna. Ete phale. These are two fruits. Etau vrikshau. These are two trees. Ete late. These are two creepers. Esha nadi, this is a river. Etani kamalani, these are lotuses. Ete hamsaha, these are swans. Etat jalam, this is water. Etah gopikaha, these are gopikas.
Samichina. So, are there any questions here?
So bhagini, so etat jalam, so jalam and etah gopikah, those gopikas, is that what it is?
Yes, so this water, this is water and those are gopikas. So these are gopikas.
These are gopikas.
Etat and etaha, both are on the same side. So, this water, these gopikas.
Nearby.
Yes. So, we'll read the sentences given. Etani vachani.
Bhagini, I have a question, Bhagini.
Yes.
Is jalam always treated as singular?
Not necessarily, Bhagini. I can't think of a situation where you would say two waters, but you do have the form. Jalam jale jalani.
Okay. Buckets of water may be jalani, okay.
But that would be the buckets that of that are...
Okay, the droni will get the lingam.
I don't know. Okay. Yetani vakyani uchehi patata. Saha bhartaha. Okay. Puneet Mahodaya, can you read the first line?
Saha bhartaha. Thau tanu dherau te sainikaha. That is bhartha. These are
warriors.
Warriors. Those are
soldiers.
Soldiers.
सा कुन्ती. कृतिका भगिनी.
सा कुन्ती ते सैनिके ताः सख्यः.
सो शी इस कुन्ती, दोस टू आर सोल्जर्स. व्हाट डस सख्यः मीन? लास्ट् वन्, तत् महाभारतं ते काव्ये तानि पुराणानि. दट् इस् महाभारतं. दीस् टु आर् पोम्स् एण्ड् दीस् आर् द पुराणास्. अनन्तरम् एषः कृष्णः, एतौ वृक्षौ, एते हंसाः. सो दीस् आर् जस्ट् वट् वी जस्ट् रेड् फ्रम् द स्टोरि, फ्रम् द पिक्चर्. सो एषः कृष्णः, एतौ वृक्षौ, एते हंसाः. एषा नदी, एते लते, एताः गोपिकाः. एतत् जलम्, एते फले, एतानि कमलानि. आर् देर् एनी क्वश्चन्स्?
So the story part is because everything is the picture part rather, everything is close. So this is the second paragraph, Eshaha, Esha, Etat.
Yes.
And Paha is not there in this picture then, right? Because it's somewhere.
No. Just this part, the last three lines are just the words from the picture.
Yeah, okay. So this is, I think, to differentiate close from far away.
Yes. Anantaram. So Abhyasaha. So first one, Krishnaha. Meenal Bhagini, what will go before Krishnaha?
Eshaha Krishnaha.
Eshaha Krishnaha. Next.
Etau, okay, sir.
Uh-huh. You can say the full name, Bhagini.
Etau Rikshau and Ete Late.
Samichana. Anantaram Mohan Mahodaya.
So, Esha Gopika. Etat, what is Barham? What is Barham?
So it will be Etat Barham.
What does that mean? What does Barham mean?
I can't hear you correctly, Mahodaya.
So what does Barham mean?
Barham?
Yeah.
Barham means like tail feather or leaf. So like usually it'll be feathers from the tail of a peacock.
Okay, Tat Barham. Tat Barham?
Tat or Etat.
Tat or Etat. And Parnani is... Tani Parnani, Tani Parnani. Parnani means what, Bhagini?
Leaf.
Okay.
Narasimha Murthy Mahodaya?
Etat Parnam, Ete Pale, Esha Mala.
Samichinam. Anantaram. Prabhakar Mahodaya?
Ambagi. Etau Hansau, Etaha Vrukshaha, Etaha Venyaha. Sorry, Eti Vrukshaha, Eti Vrukshaha, Etaha Venyaha.
Samichin. Dhiya Bhagini?
Lata, Salata. Gopikaha, Taha Gopikaha, Te Gopike.
Samichinam. Astu Anantaram, Radha Bhagini?
Esha Shaka, no, Etaha Shakaha, Etani Vastrani, Tani Kamalani.
Samichina. So this is the exercise. So here they have given you the whole table of what we learned. So Yesha Etau Ete Saha Taute Kaha Kauke Yesha Ete Yetaha Sate Taha Kake Kaha Yetat Ete Yetani Tate Tani Kimke Kani. So here we have the second exercise. Yetani Rupani Patitva Yetesham Uttaranam Prashnavakyani Likata. So we have to, now we have been given the sentence. We have to transform it into a question. So Eshaha Granthalayaha is Eshaha Kaha. Astu. Shilpa Bhagini, Yete Chatraha.
Bhagini, could you repeat this once again, what am I supposed to do?
So now we have been given the answer to the question, Bhagini. We have to make the question. So yete
and then you have to replace chatraha with the question word that you think is appropriate.
Ete
first
one
is
ete kaha.
No, so 1 minute. So they have given you ete, right? Directly go to the question word. The question word for that is ke. So ete ke. So ete bagini. That in the table it is in the first box here, right? Ete. So the question words are in the last box. So it is k. For ete, it is k. So it will be ete chatraha. Sorry, ete k. For ete chatraha. Anantaram etat mandiram. Puneet Mahodaya.
Kani mandir.
Etat kim.
Samichinam. Anantaram etaha sanchik. Etaha sanchikaha. Kritika bagini.
Etaha kaha.
Anantaram. Anantaram. Meenal bagini.
Etau
sahodarau. This will be kau etahu.
Etau kau.
Etau kau.
Yeah. Etau kau.
Anantaram. Mohan Mahodaya.
Esha sakhi. Esha ka.
Samichinam. Nasya Mamuti Mahodaya.
So, yete bandavaha, yete ke. Yete ke.
Samichinam. Anantaram Prabhakar Mahodaya.
Saha sachivaha, saha kaha.
Samichinam. Anantaram. Priya Bhagini.
Tani Padanani. Tani Kani.
Samichinam. Radha Bhagini.
Te Nakshatre. Te Ke.
Samichinam. Anantaram Shilpa Bhagini.
Tau Karyalayo. Tau
Karyalayo. Tau Kau.
Asto. Tau kau. Anantaram Puneet Mahodaya.
Taha kaha.
Taha vijnapikaha. Taha kaha.
Samichinam. Last one, Kritika Bhagini.
Sa vriddaha sa ka.
Samichinam. So, we'll stop here for Gita Sopanam today. We will just do some exercise on. Okay, so. So, Nalika. So, what we'll do is Nalika is Strilingam, right? So, Nalika. You can do Eshaha or. Esha or Sa. You can choose that if you want to do near or far. But do Esha Nalika. Yete nalike yetaha nalikaha. Asto. So next one, kakaha. One second. Mohan Mahodaya.
So kakaha. What are we supposed to do, Bhagini?
Yes, sir.
So you add the pronoun Mahodaya and you do it in three vachanams.
Okay. Saha kakaha. Tau kakau te kakaha.
Asu. Anantaram Nasya Murti Mahodaya.
Etat patalam patalam
patalam
patalam एतौ पाटलौ एताः पाटलाः
एते
एते पाटलाः
एते पाटलाः अस्तु अनन्तरं प्रभाकर् महोदय
एषा बाला एते बाले एताः बालाः
समीचीनम् अनन्तरं प्रिया भगिनी
अलकः
सः भगिनी ऐ हेव अ क्वेश्चन पाटलम् इस् नपुंसकलिङ्गं लिङ्गं राइट
या वाय इस् इट्
एतत् पाटलम् एते पाटले एतानि पाटलानि दट् विल् बी द युसेज् राइट
ओ सॉरी यस् भगिनी सॉरी सो इट् विल् बी एतत् पाटलम् एते पाटले एतानि पाटलानि
एषः अलकः एतौ अलकः सोरि अलके एते अलके
इट् विल् बि एषः अलकः एतौ अलकौ एते अलकाः राधा भगिनि
एषः अलकः एतौ अलकौ एते अलकाः
एते अलकाः समीचीनं राधा भगिनी
छात्रः स छात्रः तौ छात्रौ ते छात्राः
समीचीनम् अस्तु अनन्तरं शिल्पा भगिनी
करण्डकः एषः करण्डकः एतौ करण्डकौ
करण्डकः ओके एषः करण्डकः एतौ करण्डकौ एते करण्डकाः
सो भगिनि वित् दट् फिङ्गर् पायिण्टिङ्ग् डौन्वर्ड्स् सो इस् इट् सः करण्डकः तौ करण्डकौ
डोण्ट् मैण्ड् द लास्ट् टु कालम्स् जस्ट्
ओके
द फर्स्ट् बिकास् इफ् यु डू दट् देन् दे टेल् यू टु डू इट् इन् लैक् नियर् द्विवचनं फार् द्विवचनं वी वोण्ट् डू दट् फर् नौ We'll just see all the three. Okay. So, last two columns, ignore them for now. Okay. Sorry. Nashim Murthy Mahodhya, Anantaram.
Harinaha is masculine. So, एषः हरिणः
एषः न हरिणः
इट् इस् नाट् मास्कुलिन् हरिणः
इट् इस् नाट् एषः इट् इस्
एषः एषः हरिणः एतौ हरिणौ एते हरिणाः
समीचीनम् अनन्तरं
अमरि एषः कुलालः एतौ कुलालौ एते कुलालाः
समीचीनं मोहन् महोदय
एषः कुम्भकारः एषः एतौ कुम्भकारकौ एते कुम्भकारौ कुम्भकाराः
अस्तु अनन्तरं कृतिका भगिनी
एषः कृषकः एतत्
एतौ कृषकौ एते कृषकाः
समीचीनं समीचीनम् अनन्तरं पुनीत् महोदय
एषा जवानिका एते जवानिके
जवनिका जवनिका महोदय
जवनिका जवनिका एषा जवनिका एते जवानिके एताः जवनिकाः
समीचीनम् अनन्तरं प्रिया भगिनी
घटी एषा घटी एते घट्यौ अन्तरि
घटी घट्यौ घट्यः एषा
घटी घटी घट्यौ घट्यः एषा घटी एते घट्यौ एताः घट्यः
समीचीनम् अस्तु राधा भगिनी
द्वारम् एतत् द्वारम् एते द्वारे एतानि द्वाराणि
समीचीनं शिल्पा भगिनी व्याकरणानि अस्तु We will stop here for this class. So today we did Gita Sopanam. We started at page 6. We learnt about Akaranta Pulingaha, Akaranta Strilingaha, Ikaranta Strilingaha, Akaranta Napumsakalingaha. And then we practiced with Kaha Kauke. Astu. So today we'll stop here. I will give homework this week. Please do revise what we did in class this week because next week it's going to be very hard if you don't know what we covered this week. So make sure you practice this week and I'll send the website link for this so you can practice. Also, are there any questions?
Ma'am Bhagini, today is my first class. Thank you.
धन्यवादः महोदय
धन्यवादः
धन्यवादः भगिनी धन्यवादः